सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं क्रियते। भगिनी एकवारं श्लोकान् स्मारयतु।
ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमान्मायम् अधिगम्यापहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौतागिरा पुंसां विमलैः शब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ शान्ति।
धन्यवादाः साधु भगिनी। धातुषु प्राकृतिकानि कार्याणि इति विषयः प्रवर्तमानः अस्ति। लौकिकरूपसिद्धौ अथवा लौकिकरूपसाधनवेलायाम् अथवा प्रक्रियाकाले धातुभ्यः इत्संज्ञकवर्णानां निष्कासनम् एव अस्माकं प्रथमं कार्यम्। प्रक्रियाकाले धातुभ्यः अनुबन्धवर्णाः निष्कासनीयाः, यथा कदलीफलस्य त्वचः निर्मूलनं कृत्वा अन्तस्थं फलं खादामः, तथा एव धातुभ्यः अनुबन्धवर्णानां निष्कासनं कृत्वा निरनुबन्धधातुं प्राप्नुमः आदौ। तत्पश्चात् इमानि प्राकृतिकानि कार्याणि करणीयानि। धातोः औपदेशिकरूपम् आश्रित्य इमानि कार्याणि भवन्ति। प्रकृतिम् आश्रित्य कार्याणि भवन्ति तिङन्तरूपसाधनवेलायाम् अथवा कृदन्तरूपसाधनवेलायां। धातुः एव प्रकृतिः। धातोः औपदेशिकरूपम् आश्रित्य चत्वारि प्राकृतिकानि कार्याणि भवन्ति। चत्वारि कार्याणि कानि? सत्वं, नत्वं, नुमागमः, उपधादीर्घः। शोपदेशधातुषु सत्त्वविधिः भवति। सत्त्वस्य प्रसङ्गे ष्ठा इति धातुं स्वीकृत्य वयं चर्चां कृतवन्तः। गतिनिवृत्तौ इत्यस्मिन् अर्थे ष्ठा धातुं स्वीकृत्य वयं चिन्तनं कृतवन्तः। शोपदेशधातुषु सत्त्वविधिः भवति। कांश्चन नामधातून् विहाय, ष्ठिवुद्धातुः श्वष्कधातून् विहाय अन्येषां शोपदेशिकधातूनां प्रसङ्गे आदौ सत्त्वकार्यं भवति। धात्वादेः शः सः इति सत्त्वविधायकसूत्रमस्ति। द्वितीयं प्राकृतिकं कार्यमस्ति नत्वविधिः। नत्वविधिः कः इत्युक्ते, उपदेशावस्थायां धातोः आदौ मूर्धन्यणकारः अस्ति चेत् णोनः इति नत्वविधायकसूत्रेण मूर्धन्यणकारस्य स्थाने दन्त्यनकारः नित्यरूपेण आयाति। णोनः इति नत्वविधायकसूत्रं। धात्वादेः शः सः इति पूर्वसूत्रम्। णोनः इति परसूत्रमस्ति, इत्युक्ते षष्ठाध्याये पञ्चषष्टितमं सूत्रं णोनः अस्ति। एतेषां कार्याणां कृते निमित्तम् अनावश्यकं, निमित्तम् अनपेक्ष इदं कार्यं भवति। णोनः इति सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति। धात्वादेः णः नः, धात्वादेः णः नः इति, इत्युक्ते धात्वादेः इति पदं पूर्वसूत्रात् अस्मिन् सूत्रे अनुवृत्तं भवति। इत्युक्ते धात्वादेः शः सः सूत्रात्, पूर्वसूत्रात् धात्वादेः इति पदम् अनुवृत्तिरूपेण आयाति। णाटौ इति एकः धातुः अस्ति, उपदेशावस्थायां तस्य रूपं णाटौ अस्ति। धातौ अनुनासिक अकारः अस्ति, उपदेशे जुनुनासिक इत् इति सूत्रेण तस्य अनुनासिक अकारस्य इत् संज्ञकलोपानन्तरम् णट् इति रूपं तत्र अस्ति। अत्र धातौ उपदेशावस्थायां धातोः आदौ मूर्धन्यणकारः अस्ति इति कारणतः णो नः इति सूत्रेण तत्र स्थितस्य मूर्धन्यणकारस्य स्थाने दन्त्यनकारः आयाति। तेन नट् इति लौकिकधातोः रूपं निष्पद्यते। तस्मात् नट् धातुतः तिङन्तपदानि इत्युक्ते नटति नटिष्यति इत्यादीनि तिङन्तरूपाणि अथवा नटनं नटित्वा इत्यादीनि कृदन्तरूपाणि साधयितुं शक्नुमः. सर्वेषु णोपदेशधातुषु इदं प्राकृतिकं कार्यम् आदौ करणीयं निमित्तम् अनपेक्षा. नामधातून् विहाय अन्येषां सर्वेषां णोपदेशधातूनां प्रसङ्गे इदं कार्यं भवति. एकं तिङन्तपदमस्ति अणकारयति इति, किन्तु यद्यपि धातोः आदौ अणकारः अस्ति तथापि तत्र अणोनः सूत्रेण कार्यं न भवति. किमर्थं चेत् सः धातुः नामधातुः इत्युक्ते अणकारयति इति क्रियापदमस्ति, नामधातुतः निर्मितं पदं, तदर्थं तत्र दन्त्यनकारः न आयाति. नत्वस्य प्रयोजनमस्ति वा अथवा अयमेव प्रश्नः भिन्नरूपेण वक्तव्यं चेत् धातोः आदौ स्थितस्य मूर्धन्य अणकारस्य स्थाने नित्यं दन्त्यनकारः आयाति चेत् किमर्थम् औपदेशिकावस्थायाम् णकारविधानं कृतमस्ति इति प्रश्नः अस्ति. तस्य उत्तरम् एवं वक्तव्यमस्ति, येषां धातूनाम् आदौ मूर्धन्य णकारः अस्ति तेषां धातूनां प्रसङ्गे कानिचन विशिष्टानि कार्याणि विधीयन्ते, अन्यानि निमित्तानि पूरितानि सन्ति चेत् इति तत्र वार्ता. अन्यानि निमित्तानि पूरितानि सन्ति चेत् अन्यस्मिन् निमित्ते सति कानिचन विशिष्टानि कार्याणि एतेषु णोपदेशधातुषु भवन्ति. उदाहरणार्थम् अत्र यथा अणत्वविधिः णोपदेशधातुषु विशिष्ट अणत्वविधायकसूत्रेण अथवा अणत्वविधिना अयं मूर्धन्य णकारः पुनः आयाति, तदेव अत्र विशिष्टं कार्यं. तस्य अवगमनार्थमेव अस्मिन् करपत्रे सूत्रसहितानि उदाहरणानि दत्तानि. विशिष्टं कार्यं किम् अणोपदेशधातुषु? अणत्वविधिः. विशिष्टम् अणत्वविधायकसूत्रम् अस्माकं करपत्रे दत्तमस्ति, उपसर्गाद् असमासेऽपि अणोपदेशस्य इति. अनेन सूत्रेण किमुच्यते? उपसर्गे अणत्वस्य कृते निमित्तमस्ति. निमित्तमित्युक्ते रेफः अथवा षकारः. रेफः अथवा षकारः उपसर्गे णत्वस्य कृते निमित्तमस्ति चेत् णोपदेशधातुषु अनेन णत्वविधायकसूत्रेण समासे असमासे अपि दन्तिनकारस्य स्थाने मूर्धन्यणकारः आयाति इति तत्र सारांशः. उपसर्गादसमासेऽपि णोपदेशस्य इति सूत्रम् अस्माकं करपत्रे दत्तमस्ति. उपसर्गे निमित्तमस्ति चेत् णोपदेशधातुषु अनेन सूत्रेण दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आयाति इति. किन्तु उपसर्गे निमित्तम् अस्ति चेदपि उपदेशावस्थायां सः धातुः दन्त्यनकारः अस्ति चेत् तदा मूर्धन्यणकारः न आयाति इति अन्या वार्ता. अणोपदेशधातूनाम् आवलिः अहं प्रेषितवती, तत्र 35 अणोपदेशधातवः सन्ति, तेषाम् आवलिः अस्ति, आवलिं प्रेषितवती, भवन्तः सर्वे दृष्टवन्तः इति मन्ये. अपि च केवलम् 8 धातवः एव उपदेशावस्थायां दन्त्यनकारादयः सन्ति. तावत्पर्यन्तं वयं पठितवन्तः. अग्रे गमनात् पूर्वं गतवर्गे आगतानां प्रश्नानाम् उत्तराणि एकवारं वदामि. गतवर्गे एकः प्रश्नः आगतः, अणोपदेशः इति समस्तपदं तत्र विग्रहवाक्यं किम् इति प्रश्नः आगतः. अणः उपदेशः यस्य असौ इति विग्रहवाक्यं वक्तव्यं भवति. अणः उपदेशः यस्य असौ, अस्मिन् पदे बहुव्रीहिसमासः अस्ति. अणोपदेशः पदे बहुव्रीहिसमासः अस्ति. अपि च इदं सूत्रम् उपसर्गादसमासेऽपि अणोपदेशस्य इति सूत्रस्य अवगमनार्थं समासे असमासेऽपि इति पदद्वयम् अस्माभिः अवगन्तव्यं खलु. तदर्थं समासे इत्यस्य अवगमनार्थम् अस्माकं करपत्रे 5 दत्तानि, प्रणयनं, परिणामः, परिणायकः, परिणतिः, परिणद्धम्. इमानि पदानि कथं साधनीयानि इत्यस्य अवगमनार्थं किञ्चित् आस्वादार्थं प्रेषितवती. परिणायकः इति पदमस्ति खलु, तत्र परि इति उपसर्गः अस्ति, उपसर्गे रेफः निमित्तमस्ति, नायकः इति पदं नी धातुतः निर्मितमस्ति. नी धातुतः णुवुल् प्रत्ययस्य योजनेन नायक इति प्रातिपदिकं सिद्ध्यति. परि इति उपसर्गः, किन्तु उपसर्गाः अपि पदानि एव, उपसर्गस्य अपि पदसंज्ञा अस्ति एव. यद्यपि समस्तपदमिति वदामः, किन्तु अत्र उपसर्गः पूर्वमस्ति, उपसर्गः अपि पदमेव, उपसर्गे निमित्तमस्ति. तस्मात् परं णोपदेशधातुतः निर्मितं पदमस्ति. णोपदेशधातुतः निर्मितं कृदन्तपदमस्ति. परियोगः नायकः इति तत्र रूपमस्ति. अत्र उपसर्गादसमासेपि णोपदेशस्य इत्यनेन अस्मिन् समस्तपदे अणत्वकार्यं भवति. पश्चात् नः धातुतः नद्ध इति रूपं कथं साधनीयं, कानि सूत्राणि प्रसक्तानि इति अपि प्रेषितम्. अपि च णं धातुतः नामः इति घञन्तरूपं सिद्ध्यति. अपि च परिणतिः इति स्त्रीलिङ्गपदं क्तिन् प्रत्ययान्तरूपम् अस्ति. क्तिन् प्रत्ययान्तशब्दाः स्त्रीलिङ्गशब्दाः भवन्ति. तत्र णं धातुतः नतिः इति रूपं कथं साधनीयम् इति अवगन्तुं, तत्र अनुनासिकवर्णस्य लोपः, मकारस्य लोपः कथं भवति इति अवगन्तुम् एकं सूत्रमस्ति. यं धातुतः यति, रं धातुतः रति, नं धातुतः नति, गं धातुतः गति, तत्र मकारलोपः भवति. तेन क्तिन् प्रत्ययान्तरूपाणि सिद्ध्यन्ति. अपि च नी धातुतः नयनम् इति ल्युडन्तपदं सिद्ध्यति. किन्तु नी धातुः उपदेशावस्थायाम् अणोपदेशधातुः. अस्माकं करपत्रे प्रणयनम् इति पदं दत्तमस्ति. प्राणायनम् इत्यत्र प्र इति उपसर्गः अस्ति. नी धातुतः नयनम् इति पदं साधनीयं. तत्र उपसर्गे निमित्तमस्ति इति कारणतः औपदेशिक अवस्थायां धातुः मूर्धन्यणकारादि धातुः अस्ति इति कारणतः अनेन सूत्रेण णत्वकार्यं भवति. अपि च असमासे इति अपि अवगन्तुं कानिचन उदाहरणानि अस्माभिः पठितानि. प्रणमति, परिणमति इत्यादिषु पदेषु अपि अनेन सूत्रेण एव णत्वकार्यं भवति. परिणमति इत्यत्र नमौ इति णोपदेशधातुः अस्ति. तत्र अनुनासिक अकारः अस्ति. अनुनासिककारः उपदेशजनुनासिक इत् इत्यनेन अपगच्छति. तेन नम् इति लौकिकधातोः रूपं निष्पद्यते. परि इति उपसर्गः अस्ति. उपसर्गे निमित्तम् अस्ति इति कारणतः पश्चात् णोपदेशधातुः अस्ति. तदर्थम् उपसर्गादसमासेपि णोपदेशस्य इति सूत्रेण कार्यं भवति. किन्तु उपसर्गे निमित्तम् अस्ति चेदपि उपदेशावस्थायां दन्त्यनकारादिधातुषु इदं कार्यं न भवति. अपि च मया किं पठितम् अन्यत् इत्युक्ते असमासेपि इति सूत्रे उक्तमस्ति खलु, तदवगन्तुम् अस्मिन् सूत्रे पूर्वपदात् इत्यस्य अनुवृत्तिः अपि अस्ति. साधारणतया समस्तपदेषु पूर्वपदम्, उत्तरपदम् एतादृशचिन्तनं समासेषु एव भवति. किन्तु अत्र पूर्वपदात् इति पदस्य प्रयोगः केवलम् उपसर्गस्य निर्देशार्थमेव कृतमस्ति. पूर्वपदात् इति शब्दस्य प्रयोगः उपसर्गस्य निर्देशार्थम् अस्ति. उपसर्गाः अपि पदानि एव, तेषां पदसंज्ञा अस्ति. व्याकरणे एकः गणः अस्ति, प्रादिगणः नाम्ना. तस्मिन् गणे द्वाविंशति शब्दाः सन्ति. तेषां शब्दानां निपातसंज्ञा प्राग्रीश्वरान्निपाताः इति सूत्रेण तेषां शब्दानां निपातसंज्ञा भवति. इत्युक्ते प्रादिगणीयसदस्यानां निपातसंज्ञा एकेन विशिष्टसूत्रेण प्राग्रीश्वरान्निपाताः इति सूत्रेण निपातसंज्ञा भवति. अद्रव्यवाचिषु अर्धेषु एव, इत्युक्ते अद्रव्यवाचिषु अर्धेषु इत्युक्ते किमपि अहं प्रेषितवती, अद्रव्यवाचिषु अर्धेषु एव तेषां निपातसंज्ञा भवति. अपि च एते शब्दाः, द्वाविंशतिः शब्दाः धातुना सह प्रयुञ्जते चेदेव तेषाम् उपसर्गसंज्ञा भवति. संज्ञा इत्युक्ते केवलं नामकरणं. यदा धातुना सह तेषां प्रयोगः भवति तदा एव तेषां नाम उपसर्गः इति भवति. इत्युक्ते एते शब्दाः धातुना सह प्रयुञ्जते चेत् तेषाम् उपसर्गसंज्ञा भवति. एतेषां शब्दानाम् अन्यनामपि भवति. कथं? स्वरादिनिपातमव्ययम् इति सूत्रेण एते शब्दाः द्वाविंशतिः प्रातिगणीयसदस्याः अव्ययसंज्ञाम् अपि प्राप्नुवन्ति. एतत् सर्वम् अग्रे आयास्यति, किन्तु व्याकरणवर्गे पुनःस्मरणं कुर्मः चेत् किञ्चित् मनसि तिष्ठति. तदर्थं वदन्ती अस्मि, एते प्रादयः स्वरादिनिपातमव्ययम् इति सूत्रेण अव्ययसंज्ञां प्राप्नुवन्ति. यदा ते अव्ययसंज्ञां प्राप्नुवन्ति तदा अव्ययात् आप्सुपः इति सूत्रेण अव्ययपदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति. प्रा इति पदमेव इति कथं वक्तुं शक्नुमः? यत्र कुत्रापि प्रातिपदिकसंज्ञा अस्ति चेदेव सुप्रत्ययस्य विधानं भवति. यस्य कस्यापि शब्दस्य प्रातिपदिकसंज्ञा अस्ति चेदेव तस्मात् परं सुप्रत्ययं योजयितुं शक्नुमः. अर्धवत्तधातुरप्रत्ययः इति सूत्रेण तस्य शब्दस्य प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा भवति चेत् तदा स्वौजसमौट् इति एकं सूत्रमस्ति खलु, तस्मिन् सूत्रे एकविंशति सुप्रत्ययाः सन्ति, तेषां विधानं भवितुमर्हति. इत्युक्ते अर्धवत्तधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रेण प्रादीनां प्रातिपदिकसंज्ञा भवति. प्रादीनाम् अव्ययसंज्ञा अस्ति खलु, तदर्थम् अव्ययात् आप्सुपः इति सूत्रेण तत्र स्थितस्य सुप्रत्ययस्य लुक् भवति. लुक् भवति चेदपि तत्र प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्ययलोपे सति प्रत्ययलक्षणं तिष्ठति इति नियमेन तत्र प्रत्ययलोपे सति प्रत्ययलक्षणं तिष्ठति इति कृत्वा प्रादीनां पदसंज्ञा अस्ति. इत्युक्ते सुप्रत्ययस्य योजनेन प्रायिति प्रातिपदिकस्य पदसंज्ञा भवति. तत्र एकविंशति सुप्रत्ययाः सन्ति खलु, स्वौजसमौट् इति सूत्रेण सुप्रत्ययानां योजनेन तत्र प्रातिपदिकस्य अन्ते सुप्रत्ययः अस्ति इति कारणतः तस्य पदसंज्ञा भवति. यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा अस्ति इति सुप्तिङन्तं पदम् इति सूत्रेण उच्यते. तदर्थं तत्र सुप्रत्ययः पूर्वम् अस्ति, प्रातिपदिकात् सुप्रत्ययः अस्ति इति कारणतः तत् पदं भवति सुप्तिङन्तं पदम् इति सूत्रेण. पश्चात् अव्ययात् आप्सुपः इति सूत्रेण सुप्रत्ययस्य लोपः भवति चेदपि तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तत्र प्रत्ययलक्षणं तिष्ठति इति कारणतः प्रादीनां पदसंज्ञा अस्ति इति तत्र विषयः. अपि च कानिचन ल्युडन्तपदानि कथं साधनीयानि इत्यपि प्रेषितं मया तस्मिन् करपत्रे. नयनं, भवनं, पठनं, बोधनं, कर्षणम् इत्यादीनि पदानि तस्मिन् करपत्रे साधितानि. तावत्पर्यन्तं गतवर्गस्य विषयः. अद्य केवलम् अणत्वप्रसङ्गे चिन्तनं कुर्मः. अणोपदेशधातुषु णत्वं कैः कैः सूत्रैः भवति इति अवगन्तुं किञ्चित् विस्तरेण चिन्तनं कुर्मः. णत्वप्रकरणे प्रथमं सूत्रमस्ति रषाभ्यां नोणः समानपदे. रषाभ्यां नोणः समानपदे इति सूत्रम् णत्वप्रकरणे प्रथमं सूत्रम्, णत्वविधायकसूत्रमस्ति अथवा पूर्वसूत्रम्. रषाभ्यां नोणः समानपदे सूत्रं सामान्यसूत्रं, तदेव मुख्यसूत्रम्. रषाभ्यां नोणः इति पदानि अन्येषु सूत्रेषु अनुवृत्तानि भवन्ति, किन्तु समानपदे इति पदं सर्वेषु सूत्रेषु अनुवृत्तं न भवति. अपि च रषाभ्यां नोणः पूर्वसूत्रम्, उपसर्गादसमासेऽपि णोपदेशस्य इति परसूत्रं, किन्तु अत्र पूर्वसूत्रं परसूत्रम् इति चर्चा अनावश्यकी. किमर्थं चेत् द्वयोः सूत्रयोः कार्यक्षेत्रं भिन्नम् अस्ति. रषाभ्यां नोणः समानपदे इति सूत्रं सखण्डपदेषु एव कार्यं करोति. तत्र समानपदे इति उक्तमस्ति. समानपदे इत्युक्ते किम्? समानं च तत्पदं च तस्मिन् इति विग्रहवाक्यं वक्तव्यं. तत्र समानं च तत्पदं च तस्मिन् समानपदे इति समस्तपदस्य विग्रहवाक्यं भवति. समानपदे इत्युक्ते एकपदे, अखण्डपदे, एकस्मिन्नेव पदे रेफः अथवा षकारः, तस्मिन्नेव पदे दन्त्यनकारः अपि अस्ति चेत् तदा दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः भवति इति सूत्रेण उच्यते. रषाभ्यां नोणः समानपदे इति सूत्रे रषाभ्याम् इति पञ्चम्यन्तं पदम् किन्तु द्विवचनं किमर्थम् इत्युक्ते रेफषकाराभ्याम् इति अर्थः. एकस्मिन्नेव पदे रेफषकाराभ्याम् उत्तरस्य दन्त्यनकारस्य अणकारादेशः भवति इति. रषाभ्याम् इति पञ्चमी द्विवचनमस्ति. नः इति षष्ट्यन्तं पदम्, णः इति प्रथमान्तं पदं. समानपदे इत्युक्ते एकस्मिन्नेव पदे इति तत्र मुख्यविषयः. एकस्मिन्नेव पदे समानपदे रेफात् अथवा षकारात् साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् तदा दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आयाति. इत्युक्ते एकस्मिन्नेव पदे निमित्तम् अपि च निमित्ती च भवतः चेत् तदा दन्त्यनकारस्य अणकारादेशः भवति इति सूत्रेण उच्यते. तदवगन्तुं कानिचन पदानि जीर्णं, तीर्णं, पूर्णं, गीर्णं, शीर्णम् इत्यादिषु पदेषु णत्वस्य कृते रेफः निमित्तमस्ति. जीर्ण इत्यस्मिन् पदे रेफात् साक्षात् अनन्तरं दन्त्यनकारः अस्ति इति कारणतः तस्य दन्त्यनकारस्य स्थाने मूर्धन्यणकारः रषाभ्यां नोणः समानपदे सूत्रेण भवति. अन्यानि कानिचन पदानि वदामि. तेषु षकारः निमित्तमस्ति. कृष्णाति, पुष्णाति, मुष्णाति इत्यादिषु तिङन्तपदेषु षकारस्य निमित्तेन अणत्वं भवति. तत्र समानपदे इति मुख्यविषयः. समानपदे नास्ति चेत् तत्र अणत्वं न भवति. तदवगन्तुं पदद्वयं वदामि. अग्निर्नयति, वायुर्नयति इत्यत्र अणत्वं न भवति. वायुर्नयति, अग्निर्नयति इत्यादिषु पदेषु अणत्वं न भवति. किमर्थम् इत्युक्ते तत्र निमित्तं रेफः पूर्वस्मिन् पदे अस्ति, दन्त्यनकारः अन्यस्मिन् पदे अस्ति. इत्युक्ते समानपदे निमित्तम् अपि च निमित्ति न स्तः. तत्र समानपदे अस्ति चेदेव रषाभ्यां नोणः समानपदे इति सूत्रेण अणत्वं भवति. अग्निर्नयति इति पदं स्वीकुर्मः चेत् अग्निः इति एकं सुबन्तपदमस्ति, किन्तु तत्र प्रातिपदिकमस्ति अग्नि. अग्नि इति प्रातिपदिकात् सुप्रत्ययं योजयामः. सुप् योजनेन अग्नियोगः सुप् अस्ति. तत्र अनुबन्धलोपे सति सकारः तिष्ठति. अग्नियोगः सकारः. तत्र ससजुषोरुः इति सूत्रेण अग्नियोगः सकारः अस्ति खलु. ससजुषोरुः इति सूत्रेण तत्र स्थितस्य दन्त्यसकारस्य स्थाने रेफः आयाति. तेन अग्निर् इति रूपं सिद्ध्यति. अग्निर्योगः नयति इति रूपमस्ति. तत्र अणत्वं भवति वा न? किमर्थं चेत् निमित्तं पूर्वस्मिन् पदे अस्ति, किन्तु दन्त्यनकारः नयति इत्यत्र आदौ दन्त्यनकारः अस्ति इति कारणतः तत्र अणत्वं न भवति. अपि च रषाभ्यां नोणः समानपदे इति सूत्रस्य प्रसङ्गे अन्ये विषयाः के इत्युक्ते तस्य सूत्रस्य अन्तर्गतम् एकं वार्तिकमस्ति. रुवर्णात् नस्य णत्वं वाच्यं. कात्यायनेन वार्तिकानि लिखितानि. सूत्रस्य अन्तर्गतं वार्तिकम् इदं. रुवर्णात् नस्य णत्वं वाच्यम् इति. तेन वार्तिकेन ऋकारः इत्युक्ते अचुवर्णः अस्ति खलु ऋकारः. ऋकारः निमित्तमस्ति चेदपि एकस्मिन्नेव पदे निमित्तरूपेण ऋकारः अस्ति चेत् तदा ऋकारस्य कारणेन दन्त्यनकारस्य स्थाने मूर्धन्य णकारः आयाति. किमर्थम् इत्युक्ते ऋकारः रेफांशयुक्तः. इत्युक्ते ऋकारे रेफस्य अंशः अस्ति इति कारणतः एकस्मिन्नेव पदे ऋकारः निमित्तरूपेण अस्ति चेत् साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् तस्मिन्नेव पदे तदा रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन णत्वं भवति. तदवगन्तुं कानिचन पदानि वदामि. मातॄणां, पितॄणां, तिसॄणां, चतसॄणाम् एतानि पदानि अखण्डपदानि. मातॄणाम् इत्यत्र ऋकारस्य कारणेन ऋकारः निमित्तमस्ति इति कारणतः नाम् इत्यस्य दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आयाति. अद्य वयम् अणोनः इति सूत्रस्य प्रसङ्गे एव किञ्चित् चिन्तनं करवाम. करपत्रं पुरतः स्थापयन्तु. द्वितीयबिन्दुः नत्वं, तत्र धेयं यत् इति लिखितमस्ति. तस्मात् आरभ्य एकवारम् अवलोकयामः. तस्मात् पूर्वं किम् अस्ति? उपदेशावस्थायां दन्त्यनकारादिधातुषु अणत्वं न भवति. यद्यपि उपसर्गे निमित्तम् अस्ति तथापि अणत्वम् उपसर्गादसमासेपि अणोपदेशस्य सूत्रेण न भवति इति उक्तमस्ति. रोहिणी भगिनी धेयं यत् इत्यस्मात् पठतु.
उपसर्गादसमासेपि अणोपदेशस्य इत्यस्य अनुवृत्तिः सहितसूत्रम् अस्ति. उपसर्गात् समासे अपि नोपदेशस्य रषाभ्यां न्यः नः अट्कुपां न्युं व्यवाये अपि संहितायाम् एतान् वर्णान् वर्जित्वा निमित्तस्य उद्देश्यस्य च मध्ये कोऽपि वर्णः भवति चेत् स च वर्णः नत्वं प्रति व्यवधानं. यदा
प्रत्येकं वाक्यं स्वीकृत्य एकवारं परिशीलयामः. ध्येयं यत् इति लघु परिच्छेदः एव, तस्मिन् परिच्छेदे किं लिखितं? प्रत्येकं पदं स्वीकृत्य विवृणोतु.
ध्येयं यत् उपसर्गात् असमासे अपि नोपदेशस्य ध्येयं प्रत्येकं चिन्तनीयं. यत् चिन्तनीयम् इति
अनुवृत्तिसहितसूत्रम् अस्ति खलु, अनुवृत्तिसहितसूत्रं दृष्ट्वा प्रत्येकं पदं स्वीकृत्य तस्य अर्थः कः एकवारं विवृणोतु.
उपसर्गात् असमासे अपि नोपदेशस्य रषाभ्यां नः नः अट्कुप्वं नु व्यवाये अपि संहितायां. संहितायां विषये समासे चेत् असमासे चेदपि उपसर्गं पूर्वम् अस्ति चेत् तथा निमित्तम् अपि अस्ति चेत् नोपदेशस्य धातूनां नः नः स्यात्.
अत्र संहितायाम् इत्युक्ते यत्र यत्र द्वयोः वर्णयोः मध्ये नैकट्यमस्ति अथवा अव्यवहितस्थितिः अस्ति. संहितायाम् इत्युक्ते यत्र द्वयोः वर्णयोः मध्ये संहिता अस्ति, नैकट्यमस्ति, अव्यवहितस्थितिः अस्ति. उपसर्गात् इत्युक्ते उपसर्गस्थात् निमित्तात्. वदतु असमासेऽपि इत्यस्य अर्थः कः?
समासे अपि असमासे अपि यदि समासः न भवति चेदपि ऋषाभ्यां नः नः भवति अट्कुप्वां व्यवाये अपि संहितायां विषये.
अत्र अणोपदेशस्य इत्युक्ते धातोः आदौ णकारः अस्ति. केवलम् एकमेव पदं पूर्वसूत्रात् न आगतं खलु, समानपदे इति पदं न आगतं खलु. रषाभ्यां नोणः समानपदे इति सूत्रात् रषाभ्यां नहाणः इमानि पदानि अस्मिन् सूत्रे अनुवृत्तानि, किन्तु समानपदे इति पदम् अत्र अनुवृत्तिरूपेण न आगतम्. अत्र अट्कुप्वाङ्नुं व्यवायेपि इति एकं सूत्रमस्ति. अट्कुप्वाङ्नुं व्यवायेपि तस्मिन् प्रसङ्गे एकवारं चिन्तनं करवाम. भवती यद् जानाति तद्वदतु. अट्कुप्वाङ्नुं व्यवायेपि प्रसङ्गे
अट् प्रत्याहारवर्णानां कुवर्गीयवर्णानां कुवर्गीयवर्णानाम् आङ् इत्यस्य नुम् इति आदेशस्य व्यवाये अपि संहितायां विषये नस्य नः स्यात्.
अट् प्रत्याहारस्थवर्णः इति उक्तवती. अट् प्रत्याहारे के वर्णाः सन्ति? माहेश्वराणि सूत्राणि पश्यामश्चेत् कानि सूत्राणि स्वीकृतानि अट् प्रत्याहारः इति अवगन्तुं माहेश्वरसूत्रेषु कानि सूत्राणि द्रष्टव्यानि?
सर्वेपि अच् वर्णानि, हय, वर एतानि अपि.
उत्तमम्. इत्युक्ते प्रथमपञ्चसूत्राणि ऐ उन् रुलुक् एवोङ् अयौच् हयवरट्, प्रथमसूत्रात् आरभ्य पञ्चमसूत्रपर्यन्तम् अट् प्रत्याहारस्थवर्णाः सन्ति. सर्वे स्वराः अपि च हयव इत्यादीनि व्यञ्जनानि अपि अट् प्रत्याहारे सन्ति. कु इत्युक्ते वदतु.
व्यावर्णः अपि हयवरट्, व्यावर्णः अपि अट् मध्ये,
रेफः अपि अट् मध्ये अस्ति. सर्वे स्वराः अपि च हयवर अट् प्रत्याहारे सन्ति. कु इति कथनेन?
कवर्गीयवर्णाः.
पु इति कथनेन?
पवर्गीयवर्णाः.
आङ् इति कथनेन?
आङ् इत्यस्य आकारम् इति भवति, आ इति वर्णः आकारः.
अपि च नुम् इति कथनेन?
नुम् आदेशः यत्र भवति, क्षम्यतां, नुम् आगमः यत्र भवति तद् नकारस्य अपि।
गोमती भगिनी एकवारं वदतु, नुम् इत्युक्ते कः?
नुम् इत्युक्ते नुम् ग्रहणम् इत्युक्ते अनुस्वारलक्षणार्थम्, अनुस्वारमस्ति चेदपि अनन्तरं नुमागमेन आगम नकारस्य अपि अपि स्वीकरणीयम् इति।
नुम् इत्युक्ते अनुस्वारः। एते वर्णाः मध्ये व्यवधानरूपेण सन्ति चेदपि, एकः वर्णः वा भवतु बहवः वर्णाः वा भवन्तु, रेफ दन्त्यनकारयोः मध्ये एकः वर्णः अथवा बहवः वर्णाः वा भवन्ति चेदपि तत्र णत्वस्य कृते बाधां न कुर्वन्ति। व्यवधानरूपेण एते वर्णाः सन्ति चेदपि, निमित्तस्य उद्देश्यस्य च मध्ये एते वर्णाः भवन्ति चेदपि अणत्वं भवति, किन्तु एतान् वर्णान् वर्जयित्वा अन्ये वर्णाः सन्ति चेत् णत्वस्य प्रति बाधां कुर्वन्ति इति। अट्कुप्वाङ्गनं व्यवायेपि इति सूत्रम् अवगन्तुं कानिचन पदानि वदामि, विस्तरेण चिन्तनं कुर्मः। वारिशब्दः अस्ति, वारिशब्दस्य रूपाणि वारि, वारिणि, वारीणि इति रूपाणि भवन्ति। वारीणि बहुवचनरूपं स्वीकरोतु। वारीणि इत्यत्र कथम् अणत्वं भवति, के के वर्णाः सन्ति रेफदन्त्यनकारयोः मध्ये, किञ्चित् विवृणोतु। रोहिणी भगिनी वदतु, भगिनी वक्तुमिच्छति वा?
वारि इति वकारः, आकारः, रेफः इकारः, नकारः इकारः, वारिणि इत्यस्य
बहुवचनरूपं स्वीकरोतु।
अत्र वकारः, आकारः, रेभः, ईकारः, नकारः, इकारः, अत्र रेभात् अनन्तरम् आकारः अस्ति, आकारः एव व्यवधाने भवति, तस्मात् नस्य नत्वं भवति।
वारीणि इत्यत्र दीर्घ ईकारः स्वरवर्णः अस्ति, स्वरवर्णः एव तत्र व्यवधानमस्ति, स्वरवर्णः अट् प्रत्याहारस्थवर्णः इति। साधु भगिनी साधु उक्तवती, धन्यवादाः। गोमती भगिनी भवती वदतु, अत्र द्रोहः इति पदमस्ति, द्रोहः इति पदस्य तृतीयाविभक्त्यन्तं रूपं द्रोहेण, द्रोहेण इत्यत्र व्यवधानरूपेण रेफदन्त्यनकारयोः मध्ये के के वर्णाः सन्ति?
द्रोहेण अस्ति भगिनी, द्रोहेण,
द्रोहेण,
द्रोहेण इत्युक्ते दकार रेफ ओकार द्रो, हकार एकार नकार अकार इति वर्णच्छेदः भवति। अत्र रेफः अस्ति निमित्तरूपेण, अनन्तरम् ओकारः, हकारः, एकारः, ये सर्वे अट्कुप् नुम् वाङ् व्यवायेति इति सूत्रे बाधकवर्णः न इति तत् सूत्रं वदति, तु बाधकवर्णः नास्ति, रेफमस्ति, निमित्ति अस्ति नकारः, अतः नकारस्य नत्वं भवति द्रोहेण इति। नकारस्य अनन्तरम् अकारः अपि अस्ति, अतः भवति एव द्रोहेण इति रूपम्।
उत्तमं, द्रोहेण, रेफात् परं हकारः अस्ति, अपि च एकारः स्वरवर्णः अस्ति, नकारान्तपदम् एकं पदम् अस्ति, ब्रह्म, ब्रह्मणि, ब्रह्माणि इति रूपाणि सन्ति। नपुंसकलिङ्गपदमस्ति, ब्रह्मशब्दः पुंलिङ्गे अपि अस्ति, नपुंसकलिङ्गे अपि अस्ति। अत्र नपुंसकलिङ्गपदस्य प्रसङ्गे अहं वदन्ती अस्मि, तत्र नकारान्तपदमस्ति, ब्रह्म, ब्रह्मणि, ब्रह्माणि, ब्रह्माणि इति पदं स्वीकृत्य वदतु।
तत्र अनुवृत्ति भवति बकार रेफ मकार षकार अकार नकार इकार इति। तत्र बकार अनन्तरं रेफ अस्ति, हकार मकार मध्ये बाधकवर्णः नास्ति, नकारः अस्ति, अनन्तरम् इकारः अस्ति, अतः अट् कुप्नुं वाङ् व्यवायेपि इति सूत्रेण रेफस्य कारणेन नकारस्य नत्वं भवति, ब्रह्माणि इति रूपं भवति।
उत्तमं, ब्रह्माणि इति बहुवचनरूपमस्ति। यद्यपि ब्रह्माणि इति उच्चारयामः, किन्तु कथं लेखनीयं? ब्रह्माणि एव लेखनीयम्, एवं खलु?
उच्चारणे समये मकारप्रथमम् आगच्छति, यदा वयं लिखामः तदा हकार अनन्तरं मकारः।
उत्तमं, तत्र मध्ये व्यवधानरूपेण हकारः अस्ति, अपि च मकारः अस्ति। मकारः पवर्गीयव्यञ्जनम् अस्ति, दीर्घ आकारः अपि अस्ति। इत्युक्ते आहत्य हकारः पवर्गीयमकारः आकारः अस्ति इति कृत्वा ब्रह्माणि मध्ये व्यवधानम् इत्युक्ते अट्कुप् आङ् नुमः सन्ति चेदपि णत्वं भवति इति वार्ता। गीताञ्जलिभगिनी एकवारं वदतु, पुष्पाणि इत्यस्मिन् किं भवति?
पुष्पाणि तत्र मूर्धन्यषकार इति निमित्तम् अस्ति, तदनन्तरं पकार अस्ति, इति तु पवर्ग अस्ति, इत्युक्ते अट्कुप् वाङ् नुं व्यवायेपि इति सूत्रस्य अन्तर्भूतवर्ण एव अस्ति। अपि च आ पुष्पा आ अपि अस्ति मध्ये, तदपि अट् प्रत्याहारस्य वर्णः अस्ति, पुष्पाणि। तदनन्तरं निमित्ति आयाति दन्त्यनकार, तत् नत्वं भूत्वा पुष्पाणि इति निष्पन्नं भवति।
उत्तमं, द्वाराणि तत्र?
हा, द्वाराणि तत्र द्वाराणि तत्र रेफ अस्ति, तदनन्तरं रेफ तु वार्तिकेन न रसाभ्यां नोणः समानपदे, किन्तु मध्ये वर्णाः कानिचन वर्णाः सन्ति, इत्युक्ते द्वाराणि मध्ये आ अस्ति, तत् अट् प्रत्याहारस्य वर्ण अस्ति, द्वारा तदनन्तरं णत्वं भवति, निमित्तं नकार दन्त्य मूर्धन्य भवति द्वारा।
उत्तमं भगिनि, ज्ञानानि इति पदं परिशीलयामश्चेत् तत्र निमित्तमेव नास्ति इति कृत्वा तत्र दन्त्यनकारः यथावत् तिष्ठति, ज्ञानानि इति पदे णत्वं न भवति। साधु भगिनी साधु उक्तवती। इदानीं नरेश महोदय भवान् वदतु, मूर्खः इति पदमस्ति चेत् तत्र तृतीयविभक्तं पदं
मूर्खेण रेफा निमित्तम् अस्ति, मूर्खेण रेफा अनन्तरं खकारः अस्ति, एकारः अस्ति। खकारः तु कुवर्गे अस्ति, कवर्गे अस्ति, एकारः अपि अट् मध्ये अस्ति, अतः अन्तिम नकारः नत्वं भवति, मूर्खेण भवति।
उत्तमम्, एवमेव अन्यानि पदानि अपि अर्केण इत्यस्मिन् पदे अथवा मूर्खेण अपि च गर्गेण, गर्गेण इति पदं स्वीकुर्मः चेत् तत्र कवर्गीयवर्णः गकारः अस्ति, गर्गेण अर्घेण अर्केण मूर्खेण इत्यादिषु कवर्गीयव्यञ्जनानि कवर्गीयवर्णाः मध्ये व्यवधानरूपेण सन्ति। एवमेव अन्यत् पदं वदामि, रेफेण इति पदमस्ति, रेफेण रेफः अस्ति खलु, रेफः इति पदस्य तृतीयविभक्त्यन्तं पदं रेफेण वदतु।
रेफेण रेफ निमित्तम् अस्ति, तदनन्तरम् एकारः अस्ति, फकारः अस्ति, एकारः अस्ति, तदनन्तरं नकारः आगतः। एकारः तु अट् मध्ये अस्ति, फकारः पवर्गे अस्ति, अतः बाधकः नास्ति। एकारः अट् मध्ये अस्ति, अतः अन्तिमनकारः नत्वं भवति, रेफेण भवति.
उत्तमं. पवर्गीयव्यञ्जनं तत्र मध्ये व्यवधानरूपेण अस्ति, रेफः निमित्तमस्ति. एवमेव दर्पेण, रेफेण, गर्भेण, चर्मणा, चर्मणा इति चर्म इति नपुंसकलिङ्गपदमस्ति. प्रातिपदिकं चर्मन्, तत्र तृतीयाविभक्त्यन्तं पदं चर्मणा, तत्रापि रेफः निमित्तमस्ति. अपि च पवर्गीयव्यञ्जनं मकारः मध्ये व्यवधानरूपेण अस्ति, पवर्गीयव्यञ्जनमस्ति इति कृत्वा चर्मणा इत्यस्मिन् दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आयाति. एवमेव वर्मणा, चर्मणा, कर्मणा इत्यादिषु पदेषु दन्त्यनकारस्य स्थाने मूर्धन्यणकारः अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण भवति. तेषु पदेषु रेफस्य साक्षात् अनन्तरं दन्त्यनकारः नास्ति, मध्ये व्यवधानरूपेण अन्ये वर्णाः सन्ति, किन्तु ते वर्णाः बाधकवर्णाः न. रेफदन्त्यनकारयोः मध्ये आङ् अस्ति चेत् अपि णत्वं भवति. एतदवगन्तुं पदद्वयं वदामि. पर्याणद्धं, निराणद्धम् इति पदद्वयं परिशीलयामश्चेत् पर्याणद्धं, निराणद्धम् इति पदद्वयं स्वीकृत्य अस्माभिः अवगन्तव्यम्. प्रतिमा भगिनी, भवती वक्तुमिच्छति वा?
पर्याणर्थं, पर्याणर्थं, प योग अ योग य योग रेफ योग आ योग न योग अ.
पदविच्छेदं कृत्वा वदामि. परि उपसर्गः अस्ति, आङ् अस्ति, अपि च नः धातुतः नद्ध इति रूपं तत्र अस्ति. परियोगः, आङ् योगः, नद्ध. परियोगः, आङ् योगः, नः धातुतः क्ताप्रत्ययस्य योजनेन नद्ध इति रूपं सिद्ध्यति. आहत्य अत्र कति पदानि सन्ति? परि, आङ्, नद्ध. इदानीं वदतु.
Sorry, I can't do that.
चिन्ता मास्तु. इदानीम् अत्र सुजाता भगिनी भवती वक्तुमिच्छति वा?
परि उपसर्ग अस्ति, नः धातु अस्ति, ता प्रत्ययः अस्ति, निमित्तम् उपसर्गे अस्ति, नकारः धातुतः नकारः, नकारः भवति, परिणद्धं भवति.
पदमस्ति पर्याणद्धम्. अत्र
पर्याणद्धं रेपः अस्ति, पर्याण नकारस्य पूर्वं रेपः अस्ति, पर्याण नर्धं नकारः पूर्वं रेपः अस्ति, इत्यनेन नकारस्य स्थाने नकारः भवति.
एकवारं लिखतु पर्याणद्धम् इति पदं स्वीकुर्मः चेत् परि उपसर्गः अस्ति, आङ् उपसर्गः अस्ति, नः धातुतः कताप्रत्ययस्य योजनेन नद्ध इति रूपमस्ति. आहत्य तत्र त्रीणि पदानि सन्ति, परि, आङ्, नद्ध. तत्र णत्वं कथं भवति, केन कारणेन भवति? गोमती भगिनी वदतु.
सूत्रं वदति आङ् इति उपसर्गः बाधकवर्णः नास्ति, तदस्ति अपि चेत् अपि णत्वं भवति इति. आम् इति उपसर्गः अस्ति, तस्य पदसंज्ञा अस्ति, पदं मध्ये आगच्छति, परन्तु आम् इत्यस्य स्वीकरणं तत्र अस्ति. तो आम् अस्ति चेदपि तत्र णत्वं भवति. आम् तु बाधकवर्ण बाधकपदं नास्ति. परियोग आम् तत्र यणसन्धि भवति, पर्या भवति, अनन्तरं नः निमित्तम् उपसर्गे रेप् परि तत्र रेफमस्ति, रेफस्य कारणेन णत्वं भवितुम् अर्हति. आम् बाधकवर्णः नास्ति, अनन्तरं नकारः अस्ति, नकारः तु भूत्वा गच्छति, पर्या नकारस्य नकारत्वं भवति, परि न हकार तकार सन्धि सूत्राणि अहं न स्मरामि भगिनि, परन्तु सूत्राणि अस्ति, अतः तद् नद्धं भवति, परिणद्धम् इति.
पर्याणद्धं
पर्याणर्थं
तदेव सुजात भगिनी पर्याणर्थं तत्र सन्धिकार्याणि अपि सन्ति परि इत्यस्मिन् रेफः अस्ति निमित्तरूपेण आङ् उपसर्गः व्यवधानरूपेण अस्ति चेदपि तत्र णत्वं भवति सूत्रेण किमुच्यते अट्कुप् आङ् नुम् इति उक्तमस्ति खलु आङ् नुम् इति उक्तमस्ति खलु आङ् उपसर्गः मध्ये व्यवधानरूपेण अस्ति चेदपि आङ् बाधकवर्णः नास्ति इति कृत्वा कार्यं भवति इदानीं भवती वदतु निराणद्धम् उपसर्गस्य परिवर्तनं कृत्वा भिन्नं पदम् उक्तवती निराणद्धं वदतु
निर् उपसर्ग अस्ति आङ् आङ् उपसर्ग अस्ति आङ् अवरेकवारं वदतु भगिनि परि
तत्र पर्याणद्धम् इत्यस्मिन् प्रसङ्गे गोमती भगिनी उक्तवती तादृशं पदमेव किन्तु भिन्नं पदं निराणद्धम् तत्रापि त्रीणि पदानि सन्ति
निर् उपसर्ग अस्ति निर् आङ् उपसर्ग अस्ति आङ् अस्ति निर्याण
नर्धम् इति रूपं नपुंसकलिङ्गे नः धातुतः योजनेन नर्ध
इति
तत्र त्रीणि पदानि सन्ति वदतु
निर् उपसर्ग अस्ति आण् अट् प्रत्याहारस्य आङ् अस्ति
अट् प्रत्याहारस्थवर्णः इति नास्ति सूत्रं पश्यतु अट्कुप् आङ् नुम् व्यवायेपि इति उक्तमस्ति अट्कुप् आङ् इति उक्तमस्ति तत्र यण् सन्धिः अस्ति यण् सन्धिं वदतु कथं
यण् सन्धि
सूत्रे सूत्रस्य प्रसङ्गे वदन्ती अस्मि
अट्कुप् वाङ् वकारः अस्ति
यण् सन्धिः भूत्वा
वाङ् अस्ति उकारस्य स्थाने भवति आङ् वाङ् भवति
तत्र अट् कूपु पू इति कथनेन उकारः अस्ति स्थितस्य उकारस्य स्थाने यण्सन्धिः भूत्वा वकारः आगतः अहं सूत्रस्य प्रसङ्गे वदन्ती अस्मि अट्कुप् वाङ् नुम् व्यवायेपि तत्र सूत्रे आङ् इति उक्तमस्ति इति कारणतः आङ् इति बाधकवर्णः नास्ति अन्तिमः नुम् इति उक्तमस्ति
क्षम्यतां भगिनि तत्र इत्युक्ते निमित्तं तु उपसर्गे अस्ति तत्र इत्युक्ते समानपदे तु नास्ति पर्याणद्धं समानपदं तु नास्ति न भगिनि तत्र
समानपदं नास्ति
हा इत्युक्ते अपि च निमित्तम् उपसर्गे अस्ति इत्युक्ते पूर्वस्मिन् पदे निमित्तम् अस्ति अपि च निमित्ती तु उत्तरपदे अस्ति
अत्र कीदृशचिन्तनम् अपेक्षितम् इत्युक्ते अट्कुप् वाङ्नुम् व्यवायेपि इत्यस्मिन् सूत्रे रषाभ्यां नोणः समानपदे इति सम्पूर्णसूत्रस्य अनुवृत्तिः अस्ति अट्कुप् वाङ्नुम् व्यवायेपि इत्यस्मिन् सूत्रे रषाभ्यां नोणः इति सूत्रं सम्पूर्णरूपेण आयाति
किन्तु अत्र तु समानपदं नास्ति न भगिनी
अत्र समानपदं नास्ति
सूत्रं तु अट्कुप् वाङ्नुम् व्यवायेपि इति सूत्रेण तु पर्याणद्धं न भवति न भगिनि
व्यवधानरूपेण मध्ये वर्णाः सन्ति चेदपि णत्वं भवति इति
तत्तु समीचीनं किन्तु मम प्रश्नः भगिनि किञ्चित् भ्रमः जातः इत्युक्ते समानपदं नास्ति चेत् प्रातिपदिकान्त नुम् व्यवायेषु च इति सूत्रेण णत्वं भवति तत्र वा
प्रातिपदिकान्त नुम् विभक्तिषु च इति सूत्रेण समस्तपदेषु कार्यं भवति गोमति भगिनी वदतु
भगिनि प्रश्नः एतत् एषः वा आङ् इति पदमस्ति अतः कथं भवति एतद् वा प्रश्नः प्रश्नः किं वद
न भगिनि प्रश्नः इत्युक्ते परि इति उपसर्ग अस्ति आङ् इति तु सत्यम् आङ् तु अट् नुम् अट् कुवाङ् नुम् व्यवायेपि इति सूत्रस्य अन्तर्भूतवर्णः अस्ति एव किन्तु अट् कुवाङ् नुम् व्यवायेपि तु समानपदे इति अनुवृत्तिसहितरूपम् आयाति रषाभ्यां नोणः समानपदे इति सूत्रेण अत्र समानपदं नास्ति नास्ति चेत् तस्य सूत्रस्य केन सूत्रेण अत्र णत्वं भवति इति मम प्रश्नः.
मम अवगमनम् एवमस्ति, अत्र भवति चेत् उपसर्गादसमासेणोपदेशस्य इत्यस्य प्रसक्तिः अस्ति वा इति चिन्तनीयं भवति.
नः तु णोपदेशस्य नास्ति न भगिनि, णः कीदृश
णोपदेशः
तत् अस्ति चेत् इति भगिनि उपसर्गादसमासेपि णोपदेशस्य इति सूत्रेण एव णत्वं भवति इति मन्ये भगिनि.
णः बन्धने इत्यस्मिन् अर्थे तत्र णोपदेशधातुः एव
इति मन्ये भगिनि, तेन एव णत्वं भवति इति मन्ये भगिनि.
निर् अथवा परि इति उपसर्गद्वयं पदमेव, अपि च आङ् अस्ति.
भगिनि एकं वाक्यं पठितुमिच्छामि, मम पुस्तके अस्ति. आङ् व्यवाय इत्येव सिद्ध आङ् ग्रहणं पदव्यवाये इति एकं सूत्रमस्ति. पदव्यवाये इति सूत्रमस्ति पदव्यवाये इत्यस्य प्रतिषेधस्य बाधनार्थम् इति. पदव्यवाये प्रतिषेधस्य बाधनार्थम् अत्र आङ् दत्तम् इति, अत्र दत्तं. परन्तु सन्धि कर्मसन्धिकार्यार्थम् एकपदम् इति अत्र स्वीकृता वा
चिन्तनीयम्. अत्र उपसर्गादसमासे णोपदेशस्य इत्यस्य प्रसक्तिः भवितुमर्हति इति मम चिन्तनं चिन्तनीयम्. अपि च अत्र अन्यः व्यवधानवर्णः कः इत्युक्ते नुम् इति उक्तमस्ति. नुम् इत्युक्ते अनुस्वारः. तदवगन्तुं ब्रह्मणम् अथवा ब्रह्मणीयं तृम्हणं तृम्हणीयं. ब्रह्मणम् इत्यत्र रेफः नास्ति, ऋकारः एव अस्ति. ऋकारः अपि रेफांशयुक्तः इति अस्माभिः ज्ञातमेव. तत्र ऋकारस्य कारणेन मध्ये अनुस्वारः व्यवधानरूपेण अस्ति चेदपि तत्र णत्वं भवति. इतोपि किं पठितम्? अट्कुप्वाङ्गनुं व्यवायेपि इति सूत्रस्य अनुवृत्तिः णत्वप्रकरणे बहुषु सूत्रेषु अस्य सूत्रस्य अनुवृत्तिः अस्ति, अस्य सूत्रस्य कार्यमस्ति. इत्युक्ते एते वर्णाः व्यवधानरूपेण सन्ति चेदपि, एकः वर्णः वा भवतु बहवः वर्णाः एतेषु अन्यतमवर्णाः सन्ति चेदपि तत्र णत्वकार्यं भवति. कृपेण इति पदमपि तृतीयविभक्त्यन्तं पदमस्ति, तत्र ऋकारस्य कारणेन णत्वं. करपत्रम् एकवारम् अवलोकयाम. अत्र प्रणिनदति इति तिङन्तपदं दत्तमस्ति. प्रणिनदति इत्यस्मिन् पदे कीदृशचिन्तनम् अपेक्षितम् इति एकवारं चिन्तयामः. वीणा भगिनी भवती वदतु.
प्र इति उपसर्गः अस्ति, नी इति अपि उपसर्गः अस्ति, तस्य योगे नदति इति अस्ति. प्र अस्ति चेत् अतः अत्र रेफः अस्ति, अतः न भवति. तदनन्तरं नदति तत्र किम् अस्ति अट्कुप्वाङ् नुम् इति वर्णः नास्ति तत्र, अतः प्रसक्तिः एव नास्ति तत्र. प्रणी एव णकार एकवारमेव णत्वं भवति. प्रणी नदति नदति तत्र प्रसक्ति रेफस्य निमित्तम् अपि नास्ति, अतः णत्वं न भवति. प्र इति प्राक् एव अस्ति, अतः नी उपसर्गः अस्ति चेत् अपि तत्र णत्वं भवति.
प्रणिनदति इति पदस्य विषये णत्वप्रसङ्गः कीदृशरूपेण अस्ति इति अवगन्तुम् अत्र यद् लिखितमस्ति तद् एकवारं पठनीयं. भगिनी एकवारम् अत्र यद् लिखितमस्ति तत् पठित्वा वदतु.
अत्र प्र उपसर्गे स्थितस्य रेफस्य प्रभावेन नी उपसर्गस्थितस्य नकारस्य णत्वं भवति. तदेव. परन्तु स च नी उपसर्गस्थितः नकारः नदति पदस्य नकारं प्रति णत्वव्यवधानं, यतोहि मध्ये स्थितः नकारः अट्कुप्वाङ्नुमः इत्येषु नास्ति.
इतोपि अत्र पठतु, आवरणे किञ्चित् लिखितमस्ति.
प्रणिनदति इति पदे नी उपसर्गः स्थितस्य नकारस्य णत्वं भवति. अष्टमाध्याये चतुर्थपादे सप्तदश इति सूत्रेण तस्य च व्याख्या अत्र नावश्यकी। नी उपसर्गस्य नकारस्य नत्वं भवति। प्रणीन्नदति इति पदे नी उपसर्गस्य नकारस्य नत्वं भवति। नी तत्र प्र इति उपसर्गः अस्ति, अतः ते तत्र अव्यवहारे रेफसनन्तरं न अस्ति, तालव्ये न अस्ति, सारि दन्त न अस्ति, अतः तत्र णत्वं भवति इति अहं मन्ये। नदति तत्र प्रसक्तिः एव नास्ति, णत्वस्य प्रसक्तिः एव नास्ति।
अत्र विषयद्वयमस्ति, प्रणिनदति इत्यत्र प्र इति एकः उपसर्गः, नि इति अन्यः उपसर्गः। प्र इत्यस्मिन् उपसर्गे रेफः अस्ति, रेफः निमित्तमस्ति। नि इत्यत्र दन्त्यनकारः अस्ति, दन्त्यनकारः मूर्धन्य णकारः अभवत्। कथं प्र इत्यस्मिन् उपसर्गे रेफः निमित्तमस्ति इति कारणतः नि इत्यस्मिन् उपसर्गे दन्त्यनकारस्य स्थाने मूर्धन्य णकारः आगतः, किन्तु केन सूत्रेण नि इत्यस्मिन् उपसर्गे दन्त्यनकारः मूर्धन्य णकारः अभवत् इति अवगन्तुम् एकं विशिष्टम् अन्यत् सूत्रम् अपेक्षितं। तत् सूत्रम् अष्टमाध्याये अस्ति। तत् सूत्रं किं? तत् सूत्रं बहुदीर्घम् अस्ति। प्रणि इत्यस्मिन् मूर्धन्य णकारः विशिष्टसूत्रेण भवति। तत् सूत्रं नेर्गद नद पत पद मास्यति हन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति देग्धिषु च। सप्तमी बहुवचनरूपम् अस्ति देग्धिषु इति, तत्र एकं समस्तपदमस्ति, तस्मिन् समस्तपदे नद इति लिखितमस्ति, इत्युक्ते नद् धातोः प्रसङ्गः अस्ति। तत् सूत्रं किं वदति? उपसर्गे निमित्तम् अस्ति, उपसर्गस्य निमित्तात् परं नि इति अन्य उपसर्गः अस्ति, अपि च नद् धातोः प्रसङ्गः तस्मिन् सूत्रे अस्ति। नेर्गद नद पत पद इत्यस्मिन् दीर्घसूत्रे नद् धातोः प्रसङ्गः अस्ति। तेन विशिष्टसूत्रेण प्रणि इत्यत्र प्र उपसर्गः अस्ति, नि अन्यः उपसर्गः अस्ति, तस्मात् परं नद् धातोः रूपं नदति अस्ति इति कृत्वा तेन विशिष्टसूत्रेण अणत्वं भवति इति प्रथमविषयः। द्वितीयः विषयः कः भवति वदतु? नदति इत्यत्र दन्त्यनकारः अस्ति, तस्य दन्त्यनकारस्य स्थाने मूर्धन्य णकारः नास्ति। दन्त्यनकारस्य स्थाने मूर्धन्य णकारः नदति इत्यत्र किमर्थं नास्ति इदानीं भवती वदतु?
प्रसक्तिः एव नास्ति अत्र। नदति एकवारं णत्वं भवितव्यं, तदनन्तरम् अत्र नदति अत्र कारणनिमित्तं किम् अस्ति? तत्र निमित्तमेव नास्ति खलु?
न प्रा इति उपसर्गे निमित्तं, परन्तु सः नि उपसर्गस्थितः नकारः, नि उपसर्गस्थितः नकारः नदति पदस्य नकारं प्रति अणत्वव्यवधानम्। नदति इत्यस्मिन् पदे दन्त्यनकारः अस्ति, किन्तु तस्य स्थाने मूर्धन्यणकारः किमर्थं न आयाति? तत्र नि इत्यस्मिन् उपसर्गे स्थितस्य दन्त्यनकारः एव बाधकवर्णः।
अस्तु अस्तु,
आदौ णत्वं प्रणि इत्यस्मिन् णत्वं विशिष्टसूत्रेण भवति इति प्रथमविषयः। द्वितीयः विषयः अत्र तवर्गीयव्यञ्जनं दन्त्यनकारः नि इति उपसर्गे अस्ति, नि इति उपसर्गे स्थितः दन्त्यनकारः एव तत्र बाधकवर्णः भवति अणत्वं प्रति इति अत्र वार्ता। तदर्थमेव अत्र द्विवारं मूर्धन्य णकारः न दृश्यते, एकवारम् एव प्रणि इत्यस्मिन् एव णकारः दृश्यते। सः णकारः विशिष्टसूत्रेण आगतः, यद्यपि अत्र व्याख्या अत्र न आवश्यक इति लिखितमस्ति, किन्तु अष्टमाध्यायस्य चतुर्थपादस्य सप्तदशसूत्रमस्ति, तेन सूत्रेण णत्वं भवति। तस्मिन् सूत्रे नद् धातोः उल्लेखः अस्ति इति कृत्वा तेन सूत्रेण णत्वं भवति, किन्तु नदति इत्यस्मिन् दन्त्यनकारः अस्ति, मध्ये बाधकवर्णः अस्ति, तदर्थमेव अत्र लिखितमस्ति। यतोहि मध्ये स्थितः दन्त्यनकारः अट्कुप्वाङ् नुमः नास्ति, तवर्गीयव्यञ्जनम् अथवा टवर्गीयव्यञ्जनं मध्ये अस्ति चेत् तानि व्यञ्जनानि बाधकवर्णाः भवन्ति। अट्कुप्वाङ् नुम् इति एकवचनरूपं, नोमः इति बहुवचनरूपं खलु. साधु भगिनि, इदानीं नरसिंह हेग्डे महोदय, भवान् वदतु अग्रे किं लिखितम्.
क्षम्यतां भगिनि, एकः संशयः.
वदतु.
प्रभावेन इति दत्तं, तत्र नकारस्य नत्वं कथं न भवति?
तत्र प्रभावेन इति रूपमपि साधु, प्रभावेण इति रूपमपि साधु.
आं भगिनि,
तत्र रूपद्वयमपि साधु एव. केन सूत्रेण तत्र णत्वं विकल्पेन भवति इति अपि ज्ञातव्यं. कोऽपि वदतु. प्रभावेन, प्रभावेण इति पदद्वयमपि साधु एव.
भगिनी, कुमति च वा? कुमति च इत्युक्ते कवर्गीयवर्णः भवेत् न उत्तरपदे? तत्र तु कवर्गीयवर्णः नास्ति. प्रभावेन भगिनी, अहं चिन्तयामि न भा भू पू कमि गमि प्यायि वेपाम् इति सूत्रं कार्यं करोति. तत्र मकारादेशः न भवति. फा भू पू कमि प्यायि वेप इत्येतेषाम् उपसर्गस्थात् निमित्तात् उत्तरस्य कृत्स्थस्य नकारस्य मकारादेशः न भवति. प्रभानम् परिभानं, प्रभवनं, परिभवनम् एतानि उदाहरणानि भगिनि.
प्रभावेण, प्रभावेन इति रूपद्वयमपि साधु एव. तत्र केन सूत्रेण भवति इति
भगिनि अहं वदामि वा?
हा वदतु.
प्रातिपदिकान्त नुं विभक्तिषु च इत्यनेन तस्य रूपद्वयं भवति, विकल्पेन प्रभावेन, प्रभावेण इति भवति.
उत्तमं. मम अपि भ्रमः जातः. तत्र प्रयोगेण प्रा उपसर्गपूर्वकः योगेन इति अस्ति चेत् प्रयोगेण तत्र कुमति च सूत्रेण नित्यरूपेण अणत्वं भवति प्रयोगेण इत्यत्र. किन्तु प्रभावेन, प्रभावेण इति पदद्वये प्रातिपदिकान्तनुं विभक्तिषु च इति भाति.
आं भगिनि, आम् आं, प्रातिपदिकान्तनुं विभक्तिषु च तृतीया विभक्ति इन प्रभावयोगेन, प्रभावेन, प्रभावेण व्यस्तरूपं भवति.
महोदय भवान् पठतु. नरसिंह हेग्डे महोदय,
प्रणीनदति इति पदे नी उपसर्गे तस्य नकारस्य णत्वं भवति इति सूत्रेण अष्टमध्यायस्य चतुर्थपादस्य सप्त एकसप्तति तस्य च वाक्या अत्र नावश्यकी न अवगतम् इति सूत्रस्य वाक्यस्य अर्थं इदानीं दृष्टवन्तः. प्राणी नी धातु नकार भवति, रेफ अस्ति निमित्तम् अतः भवति.
मया पूर्वमपि उक्तमेव, प्रणिनदति इत्यस्मिन् पदे प्रणि इत्यत्र मूर्धन्यणकारः विशिष्टसूत्रेण आयाति. नेर्गदनद पत इति सूत्रमस्ति. तस्मिन् सूत्रे नद इति लिखितमस्ति, इत्युक्ते नद् धातोः प्रसङ्गः अस्ति. अपि च प्रा इत्यस्मिन् उपसर्गे रेफः अस्ति, नी उपसर्गः तस्मात् परम् अस्ति, पश्चात् नद् धातुः अस्ति इति कृत्वा प्रणि इति रूपं सिध्यति. किन्तु नदति इत्यत्र केवलं दन्त्यनकारः यथावत् तिष्ठति. किमर्थं चेत् नीत्यस्य दन्त्यनकारः एव तत्र बाधकवर्णः भवति. अग्रिमपरिच्छेदं प्रति गच्छतु.
अग्रिमोदाहरणं निधि इति धातुः. प्रथमम् उपदेशे जनुनासिक इत्यनेन इकारस्य संज्ञा, तस्य लोप इत्यनेन लोपश्च. निधि निद् भवति, नो नः इत्यनेन निद् निद् भवति. अधुना नमागम अधः दृश्यताम्. निद् निन्द् इति लौकिकधातु. अत्र निडीधातोः अन्तिम अनुनासिक इकारस्य निस्संज्ञा भवति उपदेशे जनुनासिक इत्य सूत्रेण. तस्य लोप इत्यनेन लोप अपि भवति, निद् इति अस्ति. अत्र नोनः इति सूत्रेण मूर्धन्यनकारस्य दन्तनकारः भवति निद् इति. अत्र निद् इकारस्य इत्संज्ञा अस्ति, अतः अन्ते नुमागम भूत्वा निन्द् इति भवति.
उत्तमम्. साधु महोदय, अधः दृश्यताम् इति लिखितमस्ति. अत्र विशेषचिन्तनम् आवश्यकं. निदौ इति लिखितमस्ति, उपदेशावस्थायां धातोः रूपं निदौ अस्ति. अयं धातुः इदित् धातुः, अस्मिन् धातौ अनुनासिके इकारः इत् संज्ञकः अस्ति. अनुनासिक इकारः णिदिम् इत्यस्मिन् अस्ति इति कृत्वा उपदेशे जनुनासिक इत् इति सूत्रेण अनुनासिक इकारस्य इत् संज्ञा भूत्वा णिद् अभवत्. अयं धातुः विशिष्टधातुः अथवा इदित् धातुः इति वक्तव्यमस्ति. अस्मिन् धातौ ह्रस्व इकारः इत् संज्ञकः, ह्रस्व इकारः इत् संज्ञकः यस्मिन् धातौ अस्ति सः धातुः इदित् धातुः. धातुः इदित् अस्ति चेत् किं फलम्? इदित् धातुः अस्ति चेत् तस्य नुमागमः भवति. इदितोनुम् धातोः इति सूत्रेण नुमागमः भवति. नुमागमः कुत्र भवति इति अपि प्रश्नः अस्ति. इदितोनुम् धातोः सूत्रं परिशीलयामश्चेत् इदितः धातोः नुम् आगमः भवति. आगमः इत्युक्ते मित्रवत् आगमः. तत्र अन्येन वर्णेन सह नूतनवर्णः आयाति, इत्युक्ते अन्यवर्णस्य स्थाने इति नास्ति, अन्येन वर्णेन सह अत्र तिष्ठति. पश्यन्तु, निद् इति लौकिकरूपम् इत्युक्ते अनुबन्धलोपे सति अणिद् भवति. आदौ मूर्धन्य णकारः अस्ति इति कृत्वा अणोनः इति सूत्रं कार्यं करोति, तेन अणिद् निद् भवति. इत्युक्ते तत्र दन्त्यनकारयुक्तं रूपं निद् भवति. किन्तु धातुः उपदेशावस्थायाम् इदित् धातुः, ह्रस्व इकारः इत् संज्ञकः, इत् इत् यस्य सः इति इदित् इत्यस्य विग्रहवाक्यम्. निद् इत्यस्मिन् के के वर्णाः सन्ति? नकारः अस्ति, इकारः अस्ति, अपि च दकारः अस्ति. नुमागमः भवति इति उक्तमस्ति. नुम् आगमः, नुम् आगमः इति कथनेन नुम् मित् अस्ति, इत्युक्ते नुम् इत्यस्मिन् मकारः इति संज्ञकः. हलन्त्यम् इत्यनेन नुम् इत्यत्र मकारः इति संज्ञकः भवति, अपि च अनुनासिक उकारः अपि इति संज्ञकः नुम् इत्यस्मिन्. उपदेशे जनुनासिक इति सूत्रेण उकारः अपि इति संज्ञकः भवति. तत्र केवलं दन्त्यनकारः एव तिष्ठति. नुम् इत्यत्र दन्त्यनकारः एव तिष्ठति. सः दन्त्यनकारः आगमरूपेण आयाति. कुत्र आयाति इत्युक्ते अन्तिम अच्वर्णात् परम् आयाति. तदवगन्तुमेव मिदचोन्त्यात् परः इति सूत्रम् अवगन्तव्यम्. इदितः धातोः प्रसङ्गे नुमागमः भवति. पाणिनीयधातुपाठः तस्मिन् पुस्तके अपि बहवः धातवः इदित् धातवः सन्ति. इत्युक्ते केचन धातवः इदितः सन्ति, तेषां प्रसङ्गे नित्यं नुमागमः भवति. इदमपि एकं प्राकृतिकं कार्यं. पूर्वं सत्वं नत्वम्, इदानीं तृतीयं प्राकृतिकं कार्यं नुमागमः. इदित् धातूनां प्रसङ्गे नुमागमः नित्यरूपेण भवति इति स्मर्तव्यः अंशः. किञ्चित् पठित्वा समापयामः. गीताञ्जलि भगिनी भवती पठतु.
नुमागमः इदितो नुम् धातोः, इदितः धातोः नुम् आगमो भवति. इदित् इत्युक्ते इत् इत् यस्य सः. तत्र प्रथमः इत् नाम ह्रस्व इकारः, द्वितीय इत् नाम इत् संज्ञा. ह्रस्व इकारस्य इत् संज्ञा यस्यः, सः धातुः इदित्. इत् इत् यस्य सः इदित् बहुव्रीहिः, तस्य इदितः. इदितः षष्ट्यन्तम्, नुम् प्रथमान्तम्, धातोः षष्ट्यन्तम्, त्रिपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णम्, इदितः धातोः नुम्. अत्र नुमागमः इति तृतीयप्रक्रिया दत्तं धातुषु विषये तत्र नुमागम इति प्रक्रिया इत्युक्ते इदितो नुम् धातोः एकं सूत्रं, विशिष्टसूत्रम् अस्ति, प्रमुखसूत्रम् अस्ति अपि. इदितः धातोः नुम् आगमो भवति इत्युक्ते यः धातुः इदित् अस्ति. इदित् इत्युक्ते किम्? इत् इत् यस्य सः इत्युक्ते द्विवारम् आयाति इत् इत्. प्रथमवारम् इत् इत्युक्ते ह्रस्व ई अन्ते अस्ति चेत्, इत्युक्ते यदि धातोः अन्ते हृस्व इ अस्ति तत् इत् प्रथम इत् इत्युक्ते द्वितीय इत् इत्युक्ते इत् संज्ञकः इत् संज्ञकः इत्युक्ते तस्य लोपः भवति इत् संज्ञाप्रकरणम् इति इति विषयं वयं तु जानीमः अधुना इदितो नुम् धातोः इति वदति यः धातोः इदित् अस्ति तस्य नुम् आगमः भवति आगम इत्युक्ते यथा भवती उक्तवती मित्रवत् भवति इत्युक्ते किमपि वर्णः न अपगच्छति तत्र मध्ये आयाति इति इदितो इदितः धातोः नुम् इति सम्पूर्ण इति अस्ति
उत्तमम् अत्र नुम् आगमो भवति आगमो भवति तत्र विसर्गसन्धिः अस्ति खलु
आं भगिनि उत्तमं भवति तत्र
उत्तम प्रथम इत् नाम ह्रस्व इकारः तत्र नक्षत्रचिह्नं स्थापितमस्ति किमर्थम् इत्युक्ते अत्र इतोपि ज्ञातव्यम् इत् नाम किम् अत्र इत् नाम ह्रस्व इकारः एव ई वर्णः अष्टादश इकाराणां प्रतिनिधिः अस्ति चेदपि अत्र इत् इति कथनेन केवलं ह्रस्व इकारः एव इति अवगन्तुं तत्र नक्षत्रचिह्नं स्थापितमस्ति तत्र अन्ये विषयाः केचन सन्ति नक्षत्रचिह्नं किमर्थं स्थापितम् इत्युक्ते तत्र तपरस्तत्कालस्य इति सूत्रेण तपरकरणं कृत्वा इत् इति लिखितमस्ति इत् इति कथनेन केवलं ह्रस्व इकारः एव स्वीकर्तव्यः यस्मिन् धातौ ह्रस्व इकारः इत् संज्ञकः अस्ति सः धातुः इदित् धातुः अस्माकं सम्पूर्ण अवगमनाय तपरस्तत्कालस्य इति सूत्रस्य विवरणम् अधोभागे दत्तमस्ति तदर्थमेव अत्र नक्षत्रचिह्नं लिखितमस्ति इदित् समस्तपदम् इत् इत् यस्य सः इति विग्रहवाक्यमस्ति बहुव्रीहिसमासयुक्तं पदम् अस्ति अत्र जस्त्वसन्धिः भूत्वा झलां जशोन्ते इति सूत्रेण जस्त्वसन्धिः भूत्वा तकारस्य स्थाने दकारः आगतः इदितः धातोः नुम् आगमः भवति तपरस्तत्कालस्य इत्यस्मिन् तत्कालः इत्युक्ते तस्य कालः तस्य कालस्य प्रतिनिधिः एव स्वीकर्तव्यः इति कथनेन केवलं ह्रस्व इकारः एव स्वीकर्तव्यः तपरस्तत्कालस्य इति परिभाषासूत्रं शुभदा भगिनि अग्रे किञ्चित् पठतु
यदि तर्हि यः धातुः तर्हि यः धातुः इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातौ ह्रस्व इकारस्य इत्संज्ञा भवति तस्मिन् धातु नुम् आगमः भवति एव सः धातुः इदित् अस्ति अतः नुमागमः अत्र दत्तमस्ति यत् तु नुमागमस्य निमित्तं तु इत् इत्यस्य लोपः अस्ति इति यः इदित् धातुः यः कोऽपि धातुः अस्ति यस्य अन्ते इकारस्य इत्संज्ञा भवति तस्य तत्र मिदचोन्त्यात् परः इत्यनेन क्षम्यताम् इदितो नुम् धातोः इत्यनेन नुमागमः भवति नकारः आगच्छति अपि च अन्तिम अच् यः अस्ति तस्य परं तत् तिष्ठति अतः बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातोः ह्रस्व इकारस्य इत्संज्ञा भवति तत्र नुमागमः भवति एव इति दत्तमस्ति
वयं परिशीलयामश्चेत् अधोभागे बहवः धातवः दत्ताः वद्यों इत्येकः धातुः लाच्यों कप्यों लभ्यों धातुपाठं परिशीलयामश्चेत् बहवः इदित् धातवः सन्ति इदित् इति प्रथमाविभक्त्यन्तं पदमस्ति इदितः इति षष्ट्यन्तं पदमस्ति इत् इत् यस्य सः तस्य इति वक्तव्यमस्ति इत् इत् यस्य सः इदित् तावत्पर्यन्तं बहुव्रीहिसमासः किन्तु तस्य इति कथनेन इदितः इति षष्ट्यन्तं पदं भवति अस्मिन् परिच्छेदे एव लिखितमस्ति विशेषरूपेण यस्मिन् धातौ ह्रस्व इकारस्य इति संज्ञा भवति तस्मिन् धातौ नुमागमः भवति एव इति अत्र मुख्यविषयः सर्वेषु इदित् धातुषु नुमागमः भवति इदितोनुम् धातोः सूत्रेण इति वार्ता उदाहरणं वदतु
यथा णिद् णोनः इत्यनेन णिद् निद् इति भवति. अयं धातुः इदित् नाम ह्रस्व इकारः इत् संज्ञकः यस्य सः. निद् धातोः इत् इत् इति अस्ति इति कारणेन नुमागमः. अधुना निद् धातौ नुम् कुत्र आयाति? नुम् आगमः मित्. अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमसूत्रं वक्ति. तत्र णिद् णिद्य इति सूत्रस्य उदाहरणं दत्तमस्ति. णिद् इति णिद्य इति अस्ति, तस्य अन्ते इकारः अस्ति, तस्य अन्ते इकारः अस्ति, तस्य इत्संज्ञा भूत्वा णिद् इति तिष्ठति. अपि च णो नः इत्यनेन मूर्धन्यणकारस्य दन्त्यनकारः भवति. निद् इति अन्तिमरूपम् उपदेशावस्थायां भवति. अतः अयं धातुः इदित् नाम ह्रस्व इकार इत् संज्ञकः यस्य सः. एतस्मिन् धातौ अन्तिम इकारस्य इत्संज्ञा भवति, अतः इदित् धातुः इति उच्यते. अपि च निद् इति धातोः इत् इत् अस्ति, तदेव दत्तमस्ति इति कारणेन तत्र नुमागमः अपि भवति. इत् इत् अन्तिम इकारस्य इत्संज्ञा भूत्वा तदनन्तरम् अग्रिमसोपानं नुमागमः इति भवति. नुम् इति आगमः भवति. कुत्र आयाति इत्युक्ते अग्रे अग्रिमसूत्रमस्ति.
नुम् आगमः मित् अस्ति. मित् अस्ति इत्युक्ते वदतु.
मित् अस्ति इत्युक्ते मिदचोन्त्यात् परः इति एकं सूत्रम् अस्ति. तेन सूत्रेण अन्तिम अच् यः अस्ति तस्यात् परः तस्मात् परः तत् मित् इति सूत्रं मित् इति आगमः आयाति. अत्र नुमागमः अस्ति, नुम् इति अपि मित् आगमः अस्ति. अतः अन्तिम अच् स्वरस्य अन्तिम अचः परं तत् नुमागमः आगत्य तिष्ठति. अतः निद्य इति अस्ति, तत्र निद् इति भवति. निद् इति णो नः इत्यनेन निद् इत्यस्य निद् इति भवति. तदनन्तरं नुमागमः भवति, परन्तु तत् नुमागमः तत्र आनुपूर्वी दृष्ट्वा न इ न ह्रस्व इकारः इ अपि च द इति आनुपूर्वी अस्ति. ह्रस्व इकारः यः अस्ति तस्मात् परं नुमागमः आगच्छति मिदचोन्त्यात् परः इति सूत्रेण. अतः निन्द् इति भवति इति तस्य रूपम्.
उत्तमं. तत्र मिदचोन्त्यात् परः इति परिभाषासूत्रमस्ति. इदितोनुं धातोः इति विधिसूत्रमस्ति. इदितोनुं धातोः इति सूत्रेण कार्यं भवति. नुम् आगमः भवति. नुम् आगमः मित् अस्ति. नुम् मित् अस्ति यथा इत् इत् इत्युक्ते अनुनासिके इकारः इत् संज्ञकः उपदेशजुन्नासिके इत् इत्यनेन इदित् धातुषु अनुनासिककारः इत् संज्ञकः अस्ति. अत्र नुम् आगमः इति कथनेन नुम् इत्यस्मिन् यः अन्ते मकारः अस्ति सः मकारः हलन्त्यम् इत्यनेन अपगच्छति इति कृत्वा मकारः इत् यस्य सः मित् इति वक्तव्यमस्ति. मकारः इत् यस्य सः मित्. नुम् आगमः भवति. आगमाः त्रिधा त्रयः प्रकाराः सन्ति आगमानां. मित् आगमः, टित् आगमः, कित् आगमः. वयं पूर्वं दृष्टवन्तः टित् आगमः लुङ् लङ् लृङ्क्षु अडुदात्तः इति वयं पठितवन्तः. अट् उदात्तः इति तस्मिन् सूत्रे उक्तमस्ति. इत्युक्ते भूतकालार्धे लङ्लकारे लुङ्लकारे लृङ्लकारे अट् आगमः भवति. अट् आगमः टित् अस्ति. आगमाः त्रिधा सन्ति, मित् आगमाः, कित् आगमाः, टित् आगमाः. किन्तु अत्र नुम् आगमः मित् अस्ति. मित् अस्ति इति कारणतः अयं नुम् आगमः कुत्र आयाति इति प्रश्नः. तदवगन्तुमेव सूत्रं दत्तमस्ति. मिदचोन्त्यात् परः इति परिभाषासूत्रेण सः नुम् आगमः आयाति. पश्यन्तु अस्मिन् वाक्ये वक्ति इति पदं लिखितम् अस्ति. वक्ति इत्युक्ते वच् धातोः लट्लकाररूपं. वच् धातुः अदादिगणे अस्ति. वच् इति धातोः रूपम् अस्ति. चकारस्य स्थाने चोः कुः इति सूत्रेण ककारः आयाति. तेन वक् भवति. प्रथमपुरुष तिप्रत्ययः अस्ति खलु, तेन वक् योगः ति वक्ति इति रूपं भवति. अस्मिन् स्थाने वदति इति अपि साधु एव. अग्रे एकमेव वाक्यं पठामः. सुजाता भगिनी भवती पठतु.
नुम् इति आगमे हलन्त्यम् इत्यनेन मकारसीत् संज्ञा, उपदेशे जनुनासिक इत् इत्यनेन उकारस्य इत् संज्ञा, न इति अवशिष्यते. नुम् इति आगमे हलन्त्यम् इत्यनेन मकारस्य इत् संज्ञा भवति, उपदेशे जनुनासिक इत् इत्यनेन उकारस्य इत् संज्ञा भवति, नकार एव अवशिष्यते.
उत्तमम्. नुम् आगमस्य प्रसङ्गे लिखितमस्ति. नुम् इत्यस्मिन् मकारः इति संज्ञकः अपि च अनुनासिकः उकारः अपि इति संज्ञकः भूत्वा केवलं तत्र दन्त्यनकारः एव अवशिष्यते. सः दन्त्यनकारः इदित् धातुषु कुत्र आयाति इत्युक्ते अन्तिम अचुवर्णात् परे आयाति इति अवगन्तुमेव मेदचोन्त्यात् परः इति सूत्रं. मेदचोन्त्यात् परः इत्यस्मिन् सूत्रे विषयद्वयम् अवगन्तव्यम्. एकः विषयः अस्ति सः दन्त्यनकारः अथवा नुमागमः अन्तिमस्वरात् परे आयाति इति एकः विषयः. अपि च सः नुमागमः यस्य वर्णसमुदायस्य आगमः भवति तस्य अन्तिम अवयवः अपि भवति. विषयद्वयम् अस्माभिः ज्ञातव्यं. तस्मिन् प्रसङ्गे आगामिनि सप्ताहे किञ्चित् चर्चयिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.